अनन्तरं भवति। नमस्सर्वेभ्यः। अद्य परमलघुमञ्जूषायां पञ्चदशः पाठः, एप्रिल् मासस्य द्वादशः दिनाङ्कः। अद्य वयं शाब्दबोधसहकारिकारणेषु आसक्तिं तात्पर्यं च पठामः। आदौ मङ्गलम्। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। शिवन्नत्वा हि नागेशेनानिन्द्या परमालघुः वैयाकरणसिद्धान्तमञ्जूषैषा विरच्यते। परमलघुमञ्जूषायां शाब्दबोधसहकारिकारणनिरूपणम् इत्येतत् प्रकरणम् अस्माभिः अधीयमानमस्ति। तत्र शाब्दबोधे सहकारीणि कारणानि चत्वारि उच्यन्ते। शाब्दबोधे मुख्यं कारणं पदं, पदज्ञानं, वृत्तिज्ञानं च। तत्र सहकारीणि अन्यान्यपि कारणानि भवन्ति। तानि चत्वारि आकाङ्क्षा, योग्यता, आसक्तिः, तात्पर्यं च इत्युच्यते। तत्र आकाङ्क्षा नाम का? वाक्यसमयग्राहिका आकाङ्क्षा। वाक्यार्थस्य अवगमने सहकारिणी भवति आकाङ्क्षा। एकपदार्थज्ञाने तदर्थ अन्वययोग्यार्थस्य यज्ज्ञानं तद्विषये इच्छा आकाङ्क्षा। सो का नाम आकाङ्क्षा? यदा एकस्यचित् पदस्य अर्थः ज्ञायते तदा तेन अर्थेन सम्बद्धः अन्यः अर्थः कः इति ज्ञातुम् इच्छा उत्पद्यते। सा इच्छा एव आकाङ्क्षा इत्युच्यते। अस्य अन्वयी अर्थः कः इत्युक्ते घटम् इति यदि श्रूयते, घटपदार्थः ज्ञायते तदा किं करणीयं, घटम् इत्यनेन कर्मत्वस्य भानं भवति, किं करणीयम् इति का क्रिया, क्रियाविषयिणी जिज्ञासा उत्पद्यते, सा एव आकाङ्क्षा इत्युच्यते। सा च पुरुषनिष्ठा, यतोहि अस्मासु एव इच्छायाः उत्पत्तिः भवति। घटपदार्थः किमपि नाकाङ्क्षति। सो द घट इट् सेल्फ् डस् नाट् वाण्ट् आर् नीड् एनिथिङ्ग्। सो द आकाङ्क्षा इस् विदिन् अस् टु रिलेट् इट् टु सम् अदर् वर्ड् सो दट् वी गेट् द एण्टैर् मीनिङ्ग् आफ् अ सेण्टेन्स्। किन्तु आकाङ्क्षायाः अर्थे आरोपः क्रियते विषयतासम्बन्धेन। कस्य विषये आकाङ्क्षा, किं विषयिणी आकाङ्क्षा इत्येवम् अर्थे आकाङ्क्षायाः आरोपः विषयतासम्बन्धेन क्रियते। अत एव अयम् अर्थः साकाङ्क्षः इत्यादि उच्यते। पदं साकाङ्क्षम् इति व्यवहारः अपि अस्ति, किन्तु वस्तुतः पदस्य साकाङ्क्षत्वं न सम्भवति। अर्थे अवगते एव आकाङ्क्षा उत्पद्यते। यदि पदमेव न बुध्यते तर्हि आकाङ्क्षा नोत्पद्यते। सो इफ् यु डोण्ट् अण्डर्स्टाण्ड् अ वर्ड् सो यु विल् नाट् नो वाट् टु एक्स्पेक्ट् आर् हौ यु केन् रिलेट् इट् टु एनिथिङ्ग् एल्स् एट् आल्। अतः पदं साकाङ्क्षम् इति व्यवहारस्तु साकाङ्क्ष अर्थबोधकं पदम्, साकाङ्क्षम् अर्थं बोधयति इत्येवं रीत्या पदं साकाङ्क्षम् इति व्यवहारः। किन्तु वस्तुतः पदे आकाङ्क्षायाः आरोपः न शक्यते। आकाङ्क्षायाः अपरं स्वरूपमुच्यते एकपदार्थे अपरपदार्थव्यतिरेकप्रयुक्त अन्वयबोध अजनकत्वम्। अतः अन्वययोग्य अर्थस्य जिज्ञासा आकाङ्क्षा अथवा अन्वयबोध अजनकत्वम् अपि आकाङ्क्षाशब्देन व्यवह्रियते। एकः पदार्थः अस्ति, यदि अपरः पदार्थः नास्ति तर्हि अन्वयः न बुध्यते। अन्वयबोधस्य अजनकत्वम् अपि आकाङ्क्षा इति व्यवह्रियते। तत्र सम्बद्धद्वयं भवितुम् अर्हति, उत्थापकता, विषयता इति। यथा घटम् आनय इत्यस्ति, तत्र घटपदार्थः आनयनपदार्थविषये आकाङ्क्षाम् उत्थापयति। आनयनपदार्थस्य या आकाङ्क्षा तस्य विषयः अपि भवति। अतः घटपदार्थस्य आनयनपदार्थस्य च द्विविधोऽपि सम्बन्धः अस्ति। घटपदार्थे आनयनपदार्थनिरूपिता उत्थापकता अपि अस्ति, आनयनपदार्थनिरूपिता विषयता अपि अस्ति। एवमेव आनयनपदार्थे घटपदार्थनिष्ठ आकाङ्क्षानिरूपितविषयता अस्ति, एवमेव घटपदार्थ Nishtha Akanksha Uttapakata Api Asti. So it is usually mutual. So one padartha, whenever A and B are related to each other, A generates an Akanksha for B, and A is also the object of Akanksha of B. Similarly, B is generates an Akanksha for A. It is also an object for the Akanksha generated by A. Ityevam Uttapakata Vishayata Ubhaya Sambandhaha Prayena Bhavati Kintu Kadachit Anyatara Sambandhena Api Arthantara Jignyasa Bhavati Yatha Pashyamrugodhavati Ityatra Mrugaha Dhavati Ityukte Mrugapadarthe Mrugapadarthaha Dhavana Padarth Thakankshaam Uttapayati, Dhavana Padarthankankshayaha Vishayopi Bhavati, Evam Dhavana Padarthaha Mrugapadarthakankshaam Uttapayati, Tadakankshayaha Vishayopi Bhavati iti Ubhaya Sambandhaha Vidyate. Kintu Pashya iti yada Uchyate, Tada Pashya ityanena Tadvishaye Kim Drashtavyam ityevam Karmanaha Vishaye Akanksha Uttishtati, Akankshaam Uttapayati, Darshana Padartha Dhavana Padartha Vishayinim Akanksham Uttapayati Ataha Uttapakaha Darshana Padartha Kintu Dhavati Ityukte Darshana Padartha Vishayini Akanksha Notishtati because the Kriya is self-sufficient, it does not generate an Akanksha for another Kriya. Naturally, it does not. Ataha Vishayata Nasti. So the Darshana Padartha is not a Vishaya for the Akanksha of Dhavati. It is only an Uttapaka for the Akanksha related to Dhavati. Evameva Dhavana Padarthaha Vishaya. Darshana Padarthena ya Akanksha Uttapita. Tasyaha Vishaya. So it is an object of the Akanksha which is generated by Pashya. But it will not generate an Akanksha for Darshana. Ityevam Tatra Anyatara Sambandhaha Eva. Uttapakata Darshana Padarthe Asti, Vishayata Dhavana Padarthe Asti. Dhavana Padarthe Uttapakata Nasti, Evam Darshana Padarthe Vishayata Nasti Ityevam Anyatara Sambandhaha Eva Asti, Sapi Tadrishi Arthantara Jignyasa Api Akanksha Bhavitum Arhati Iti Nageshaha Pratipadayati. Uttapakata Vishayata Anyatara Sambandhena Ubhaya Sambandhena Va Arthantara Jignyasa Akanksha. Ataeva Ghataha Karmatvam Anayanam Kritihi Ityatra Akanksha Virahat Anvaya Bodho Nabhavati. Vivaktyanta Akhyatantayoreva Sakankshatvam Ghatam Ityanena Karmatve Pratite Kriya Vishayini Akanksha Utpadyate. Ghataha Karmatvam Ityukte Akanksha Nodeti. Evam anaya ityukte kim anaya iti karma visheni akanksha uttishthati kintu anayanam kritihi ityukte tadrishi akanksha nodeti tena anvaya bodhopi na bhavati vivaktyanta akhyatanta yoreva sakankshatvam iti pratipaditam. Dvitiyam shabda bodha sahakari karanamasti yogyata ante paraspara anvaya prayojaka dharmavatvam. Itra Akanksha Udeti Tatra Padayoho Paraspara Anvayaha Bhavati Akankshaya Anvaya Bodhaha Bhavati Kintu Tatra Anvaya Prayojakaha Dharmaha Api Apekshyate Yatha Jalena Sincha Ityukte Sekakriya Dravadravya Rupam Dharmam Apekshyate. So the act of sprinkling requires a Dravadravya. Tadrisha Dharmavan Eva Padarthaha Tena saha anvetum yogyaha. So it is only a padartha which possesses the dharma of dravadravya, which is capable of being associated with that sekakriya. Atayeva vanhina sinchati iti vakyam na yogyam. Vanhau dravadravya rupa dharmaha nasti ityataha anvayaha na bhavati. Yogyata virahepi bodhaha bhavati iti vayyakaranaha. Tarkikanam mate, yari yogyata nasti, tarhi anvaya bodhaha na bhavati iti tarkikaha. Asman mate tu bodhaha bhavati. Yatohi vaudhasyaiva padarthasya bhanam sarvatrangi kriyate ityatra. Buddhau kashchidarthaha pratiyate vanhina sinchati ubhayoho arthaha bhavati paraspara anvayopi jnayate shabda bodhaha bhavati. Kinto ತಾದೃಶೇ ಅರ್ಥೆ ಪ್ರವೃತ್ತಿರ್ನ ಭವತಿ ಅಪ್ರಾಮಾಣ್ಯ ಜ್ಞಾನಾತ್. ಅಯೋಗ್ಯಂ ವಾಕ್ಯಂ ನ ಪ್ರಮಾಣಂ. ಅತಃ ಯೋಗ್ಯತಾ ವಿರಹೇ ಪ್ರಾಮಾಣ್ಯಸ್ಯೈವ ಬಾಧಃ ಭವತಿ ನತು ಬೋಧಸ್ಯ. ಸೊ ದ ಅಬ್ಸೆನ್ಸ್ ಆಫ್ ಯೋಗ್ಯತಾ ಪ್ರಿವೆಂಟ್ಸ್ ಆಕ್ಟಿಂಗ್ ಆನ್ ಸಮಥಿಂಗ್, ಆನ್ ದ ನಾಲೆಡ್ಜ್, ಬಟ್ ನಾಟ್ ಅಂಡರ್ಸ್ಟ್ಯಾಂಡಿಂಗ್ ಇಟ್. ಯು ಆರ್ ಸ್ಟಿಲ್ ಏಬಲ್ ಟು ಅಂಡರ್ಸ್ಟ್ಯಾಂಡ್ ಇಟ್ ಅಂಡ್ ಯು ಆಲ್ಸೋ ಅಂಡರ್ಸ್ಟ್ಯಾಂಡ್ ದಟ್ ಇಟ್ ಇಸ್ ನಾಟ್ ಕರೆಕ್ಟ್, ದಟ್ ಇಸ್ ಸಮಥಿಂಗ್ ಇಸ್ ರಾಂಗ್ ಅಂಡ್ ದೇರ್ ಫೋರ್ ಯು ವಿಲ್ ನಾಟ್ ಆಕ್ಟ್ ಅಪಾನ್ ಇಟ್. ಅತಃ ಪ್ರವೃತ್ತೇರೇವ ಬಾಧಕಃ ನತು ಬೋಧಸ್ಯ ಇತಿ ವೈಯಾಕರಣಾನಾಂ ಸಿದ್ಧಾಂತಃ.
ಗುಡ್ ಮಾರ್ನಿಂಗ್ ಮೇಡಮ್. ಇನ್ ದಟ್ ಕೇಸ್ ಇಸ್ ಇಟ್ ಶುದ್ಧ ಆರ್ ಅಪಭ್ರಂಶ? ಬಿಕಾಸ್ ವನಿನಾ ಸಿಂಚಿತ ಇಸ್ ನಾಟ್ ಪಾಸಿಬಲ್, ಬಟ್ ವನಿನಾ ಆಸ್ ವೆಲ್ ಎಸ್ ಸಿಂಚಿತ ಆರ್ ಬೋಟ್ ಶುದ್ಧ ಪ್ರಯೋಗ.
ಇಟ್ ಇಸ್ ಶುದ್ಧ, ದೇರ್ ಇಸ್ ನಥಿಂಗ್ ಅಪಭ್ರಂಶ. ಈವನ್ ಶಶಕ್ಷಿಂಗಂ ಇಸ್ ಶುದ್ಧ ಶಬ್ದೇ.
ಯಸ್ ಮ್ಯಾಮ್.
ಇಟ್ ಇಸ್ ಶುದ್ಧ, ರೈಟ್? ಇಟ್ ಇಸ್ ನಾಟ್ ಪಾಸಿಬಲ್. ವಂಧ್ಯಾಸುತ ಆರ್ ಶಶಶೃಂಗ ಆರ್ ಕಪುಷ್ಪಧೃತ ಶೇಖರ, ದೇ ಆರ್ ಆಲ್ ನಾಟ್ ಪಾಸಿಬಲ್, ಬಟ್ ಇಟ್ ಇಸ್ ದೇರ್. ದೇರ್ ಇಸ್ ನಥಿಂಗ್ ಟು ಪ್ರಿವೆಂಟ್ ಶಬ್ದ ಸಾಧುತ್ವ, ದಟ್ ಇಸ್ ವಾಟ್ ಹಿ ಸೇಸ್. ದ ಶಬ್ದಾಸ್ ಆರ್ ಕರೆಕ್ಟ್ ಅಂಡ್ ದೇ ಆರ್ ಈವನ್ ಅಂಡರ್ಸ್ಟುಡ್. ಪ್ರಮಾಣಂನ ಇಟ್ ಇಸ್ ನಾಟ್ ಪ್ರಮಾಣ ಬಿಕಾಸ್ ಇಟ್ ಇಸ್ ನಾಟ್ ಪಾಸಿಬಲ್. ಶಬ್ದಬೋಧಸ್ತು ಭವತ್ಯೇವ ಇತ್ಯೇವ. Because everything we say need not be correct. I mean, in that case, any lie would have to be apabhramsha because it is not true. But it is not the case. It is just shabda. What is the response? That is where the distinction is between aptavakya and anaptavakya. Aptavakya adapi bodhaha bhavati, anaptavakya adapi bodhaha bhavati. What prevents understanding? Nothing, right? I mean, you are still able to understand it. But that is where we have the distinction between pramanya and apramanya, but not the distinction between, I mean, you will understand it. Vanhina sinchati avagamanam tu bhavatyeva.
But sadhutva, will only give you punya.
Sadhutva is again, yeah, it might not give you punya. I mean, whether, see.
But is there punya? Sadhutva,
no, no, see, sadhutva, sadhutva is only with regard to the shabda, not to the artha. Remember that it is not whether even if you tell a lie, if the words you are using are correct, you will still get sadhutva. If I say something like, okay, vedaha na pramanam, vakyam like, okay, something, vedaha na pramanam, there is nothing which is preventing the words from being sadhu, right? The words are sadhu. Sadhu shabda prayogena yat punyam, tat punyam labhyate. Asatya kathanena yat papam, tadapi labhyate. So it might cancel itself. It's not that way. It is not saying
that. Neutralized.
Yeah, I mean, neutralized, or maybe if the asatya kathana papa is more prabala, I mean, this might be minute. So the sadhu shabda prayoga has its own punya. We don't know, and there is nothing to quantify the punya or papa, right? So it's not. So it is irrespective of the meaning. So the punya due to sadhu shabda prayoga is not dependent on the meaning, whether the meaning is existent or not, correct or not, nothing. Are you using the correct form of words? It's only regard to the word and not to the meaning. So yeah, grammatically correct. And not just grammatically, the sadhutva, I mean, is not dependent on being grammatically correct. It might also be sadhu and also grammatically correct, but the understanding is still wrong because there is no yogyata. That is exactly what he is saying. Avabodhaha bhavati. But what is the purpose of it? If you mean to make somebody act due to it, he will not act because what you are saying is nonsense. But the words may not be nonsensical. It is the final meaning that is yogyata. So agre gachamaha. So asattihi tritiyam shabda bodha sahakari karanam bhavati. Asattihi ka nama asattihi prakrita anvaya bodha ananukula pada avyavadhanam asattihi. ಆಸಕ್ತಿ ಇತ್ಯಸ್ಯ ತರ್ಕಶಾಸ್ತ್ರೆ ಸನ್ನಿಧಿ ಇತಿ ವದಂತಿ. ಆಕಾಂಕ್ಷಾ ಯೋಗ್ಯತಾ ಸನ್ನಿಧಿ ಇತಿ ತಾರ್ಕಿಕಾಣಾಂ ಪದಾನಿ. ಸನ್ನಿಧಿ ಇತಿ ಉಪಯುಂಜತೆ ತಾರ್ಕಿಕಾಃ. ವಯಂ ಆಸಕ್ತಿ ಸಮಾನಂ. ಆಸಕ್ತಿ ನಾಮ ಸಾಮೀಪ್ಯಂ ಇತ್ಯರ್ಥಃ. ಸೊ ಕ್ಲೋಸ್ನೆಸ್. ಕ್ಲೋಸ್ನೆಸ್ ನಾಮ ಕಿಂ? ಪ್ರಕೃತ ಅನ್ವಯ ಬೋಧ ಅನನುಕೂಲ ಪದ ಅವ್ಯವಧಾನಂ. ಅವ್ಯವಧಾನಂ ಮಧ್ಯೆ ತಾದೃಶಂ ಪದಂ ನ ಭವೇತ್. ಇದಾನೀಂ ಪದದ್ವಯಂ ಅಸ್ತಿ, ದ್ವಯೋಃ ಅನ್ವಯ ಅಪೇಕ್ಷ್ಯತೆ. ಮಧ್ಯೆ ತಸ್ಯ ಅನ್ವಯಸ್ಯ ಬೋಧೆ ಅನನುಕೂಲಂ ಅನ್ಯತ್ ಪದಂ ನ ಭವೇತ್, ಸಾ ಏವ ಆಸಕ್ತಿಃ ಇತ್ಯುಚ್ಯತೆ. ಉದಾಹರಣೇನ ಸ್ಪಷ್ಟಂ ಜ್ಞಾಯತೆ. ಗಿರಿರಗ್ನಿಮಾನ್ ಇತಿ ಆಸನ್ನಂ. ಗಿರಿಃ ಅಗ್ನಿಮಾನ್, ಪರ್ವತಃ ವನ್ಹಿಮಾನ್ ಇತ್ಯಸ್ಯೈವ ಅಪರಂ ರೂಪಂ. ಗಿರಿಃ ಅಗ್ನಿಮಾನ್ ಇತಿ ಆಸನ್ನಂ. ಗಿರಿ ಪದಾರ್ಥಸ್ಯ ಅಗ್ನಿಮಾನ್ ಇತ್ಯತ್ರ ಅನ್ವಯಃ. ಅಗ್ನಿಮಾನ್ ಇತ್ಯತ್ರ ಇತ್ಯಸ್ಯ ಗಿರೌ ಅನ್ವಯಃ. ಪರಸ್ಪರ ಆಕಾಂಕ್ಷಾ ಅಸ್ತಿ, ಯೋಗ್ಯತಾ ಅಸ್ತಿ, ಆಸಕ್ತಿರಪಿ ಅಸ್ತಿ. ಅನಾಸನ್ನಂ ಕಿಂ ತರ್ಹಿ, ಗಿರಿರ್ಭುಕ್ತಂ ಅಗ್ನಿಮಾನ್ ದೇವದತ್ತೇನ. ಕಃ ಅರ್ಥಃ? ಗಿರಿಃ ಭುಕ್ತಂ ಅಗ್ನಿಮಾನ್ ದೇವದತ್ತೇನ ಇತ್ಯಸ್ತಿ. ಶ್ರುತೇ ಝಟಿತಿ ಕಿಂ ಭಾತಿ, ಕಿಂ ಗಿರಿರ್ಭುಕ್ತಂ ಯೋಗ್ಯತಾ ವಿರಹಃ ಇವ ಭಾತಿ. ಗಿರಿಃ ಭುಕ್ತಂ, ಗಿರೇಹೇ ಭೋಜನಂ ಕಥಂ. ಕಿಂತು ವಸ್ತುತಃ ಗಿರಿಃ ಇತ್ಯತ್ರ ಅಗ್ನಿಮಾನ್ ಇತ್ಯತ್ರ ಅನ್ವಯಃ. ದೇವದತ್ತೇನ ಭುಕ್ತಂ, ಗಿರಿಃ ಅಗ್ನಿಮಾನ್ ದೇವದತ್ತೇನ ಭುಕ್ತಂ ಇತ್ಯೇವಂ ಅನ್ವಯಃ. ಕಿಂತು ಗಿರಿಃ ಅಗ್ನಿಮಾನ್ ಇತ್ಯನಯೋಃ ಅನ್ವಯ ಬೋಧೆ ಅನನುಕೂಲಂ ಪದಂ ಭುಕ್ತಂ ಇತಿ ತೇನ ವ್ಯವಹಿತಂ. ಸೊ ದೀಸ್ ಟೂ ರಿಲೇಟೆಡ್ ವರ್ಡ್ಸ್, ಗಿರಿಃ ಅಂಡ್ ಅಗ್ನಿಮಾನ್, ದೇ ಆರ್ ಸೆಪರೇಟೆಡ್ ಬೈ ಅನ್ ಅನ್ರಿಲೇಟೆಡ್ ವರ್ಡ್ ಇನ್ ಬಿಟ್ವೀನ್. ಸೊ ದಟ್ ಈಸ್ ಕಾಲ್ಡ್, ದಟ್ ಈಸ್ ನಾಟ್ ಆಸಕ್ತಿ, ಅನಾಸನ್ನ. ಸೊ ದ ಆಬ್ಸೆನ್ಸ್ ಆಫ್ ಸಚ್ ಅನ್ರಿಲೇಟೆಡ್ ವರ್ಡ್ಸ್ ಇನ್ ಬಿಟ್ವೀನ್, ಸೊ ದ ಆಬ್ಸೆನ್ಸ್ ಆಫ್ ಅನ್ ಅನ್ರಿಲೇಟೆಡ್ ವರ್ಡ್ ವಿಚ್ ವಿಲ್ ಪ್ರಿವೆಂಟ್ ಅಸ್ ಇನ್ ರಿಲೇಟಿಂಗ್ ದ ಕರೆಕ್ಟ್ ವರ್ಡ್ಸ್, ಸೊ ದಟ್ ಈಸ್ ಕಾಲ್ಡ್ ಆಸಕ್ತಿ. ಪ್ರಕೃತ ಅನ್ವಯ ಬೋಧ ಅನನುಕೂಲ ಪದ ಅವ್ಯವಧಾನಂ. ಸೊ ನಾಟ್ ಬೀಯಿಂಗ್ ಸೆಪರೇಟೆಡ್ ಬೈ ಪದಸ್ ವಿಚ್ ಆರ್ ಅನನುಕೂಲ ಫಾರ್ ಅಂಡರ್ಸ್ಟ್ಯಾಂಡಿಂಗ್ ದ ಅನ್ವಯ. ಸೊ ಫಾರ್ ಅಂಡರ್ಸ್ಟ್ಯಾಂಡಿಂಗ್ ದಿಸ್ ಗಿರಿರ್ಭುಕ್ತಂ ಅಗ್ನಿಮಾನ್ ದೇವದತ್ತೇನ, ಯು ಹ್ಯಾವ್ ಟು ಥಿಂಕ್ ವಾಟ್ ಇಸ್ ಇಟ್. ಸೊ ದೆನ್ ಓಕೆ, ಗಿರಿಃ ಇತ್ಯಸ್ಯ ಅಗ್ನಿಮಾನ್ ಇತ್ಯನೇನ ಅನ್ವಯ, ಭುಕ್ತಂ ಇತ್ಯಸ್ಯ ದೇವದತ್ತೇನ ಇತಿ ಭವೇತ್. ಏತತ್ತು ಆಸಕ್ತಿಃ ಇತ್ಯುಚ್ಯತೆ. ಅಂಡ್ ಅಕಾರ್ಡಿಂಗ್ ಟು ನಾಗೇಶ, ಆಸಕ್ತಿ ಇಸ್ ನಾಟ್ ಎಸೆನ್ಷಿಯಲ್ ಫಾರ್ ಅಂಡರ್ಸ್ಟ್ಯಾಂಡಿಂಗ್. ಇಟ್ ಈಸ್ ಓನ್ಲಿ ಆಸಕ್ತಿರಪಿ ಮಂದಬುದ್ಧೇ ಅವಿಲಂಬೇನ ಶಾಬ್ದಬೋಧೆ ಕಾರಣಂ. ಸೊ ಅವಿಲಂಬೇನ ಶಾಬ್ದಬೋಧೆ ಕಾರಣಂ. ಸೊ ಆಸಕ್ತಿ ಇಸ್ ನಾಟ್ ಎಸೆನ್ಷಿಯಲ್ ಫಾರ್ ಶಾಬ್ದಬೋಧ, ಇಟ್ ಓನ್ಲಿ ಹೆಲ್ಪ್ಸ್ ಇನ್ ಕ್ವಿಕ್ಕರ್ ಶಾಬ್ದಬೋಧ. ಅವಿಲಂಬೇನ ಶಾಬ್ದಬೋಧೆ ಯದಾ ಅನ್ವಿತಾನಿ ಪದಾನಿ ಶ್ರೂಯಂತೆ ತದಾ ಶೀಘ್ರಂ ಶಾಬ್ದಬೋಧಃ ಭವತಿ. ಯದಿ ಮಧ್ಯೆ ಅನನ್ವಿತಂ ಕಿಂಚಿತ್ ಪದಂ ವಿದ್ಯತೆ ತರ್ಹಿ ಶಾಬ್ದಬೋಧಃ ವಿಲಂಬೇನ ಭವತಿ, ತದಪಿ ಮಂದಬುದ್ಧೇರೇವ. ಇಟ್ ಇಸ್ ಓನ್ಲಿ ಫಾರ್ ದೋಸ್ ಹೂ ಆರ್ ನಾಟ್ ಶಾರ್ಪ್ ಆರ್ ಕ್ವಿಕ್. ಸೊ ಇಫ್ ಯು ಆರ್ ಶಾರ್ಪ್ ಎನಫ್ ಅಕಾರ್ಡಿಂಗ್ ಟು ನಾಗೇಶ, ಅನನ್ವಿತಂ ಪದಂ ಮಧ್ಯೆ ಅಸ್ತಿ ಚೇದಪಿ ಅನಾಸಕ್ತೌ ಅಪಿ ಶಾಬ್ದಬೋಧಃ ಶೀಘ್ರಮೇವ ಭವತಿ ಇತಿ. ಅಮಂದಬುದ್ಧೇಸ್ತು ಆಸತ್ಯಭಾವೇಪಿ ಪದಾರ್ಥೋಪಸ್ಥಿತೌ ಆಕಾಂಕ್ಷಾದಿತಃ ಅವಿಲಂಬೇನೈವ ಬೋಧಃ ಭವತಿ. ಸೊ ಅಮಂದಬುದ್ಧೇ ದೋಸ್ ಹೂ ಆರ್ ಶಾರ್ಪ್ ನಾಟ್ ಮಂದಬುದ್ಧಿ ತೇಷಾಂ ಆಸತ್ಯಭಾವೇ ಅಪಿ, ಆಸಕ್ತೇ ಅಭಾವೇ ಅಪಿ, ಈವನ್ ದೋ ದ ವರ್ಡ್ಸ್ ಮೇ ಬಿ ಫಾರ್ ಅಪಾರ್ಟ್, ಪದಾರ್ಥೋಪಸ್ಥಿತೌ ಯದಾ ಪದೈಃ ತೇಷಾಂ ಅರ್ಥಾಃ ಉಪಸ್ಥಾಪ್ಯಂತೆ ಆಕಾಂಕ್ಷಾದಿತಃ ಆಕಾಂಕ್ಷಾವಶೇನ ಅವಿಲಂಬೇನೈವ ಬೋಧೋ ಭವತಿ ಇತಿ. ನ ಬೋಧೇ ತಸ್ಯಾಃ, ತಸ್ಯಾಃ ನಾಮ ಆಸಕ್ತೇ ಕಾರಣತ್ವಂ. ಸೊ ಇಟ್ ಇಸ್ ನಾಟ್ ಅನ್ ಇಸೆನ್ಷಿಯಲ್ ಫ್ಯಾಕ್ಟರ್ ಫಾರ್ ಶಾಬ್ದಬೋಧ, ಇಟ್ ಓನ್ಲಿ ಏಡ್ಸ್ ಇನ್ ಕ್ವಿಕ್ಕರ್ ಶಾಬ್ದಬೋಧ. ದಿಸ್ ಇಸ್ ವೈ ಇಫ್ ಯು ಲುಕ್ ಎಟ್ ಅವರ್ ವರ್ಸಸ್, ಶ್ಲೋಕ ಅಥವಾ ಪದ್ಯರೂಪೇಣ ಯತ್ರ ಭವತಿ ತತ್ರ, ದಟ್ ಇಸ್ ವೈ ದ ಫಸ್ಟ್ ಸ್ಟೆಪ್ ವಾಟ್ ವಿ ಡೂ ಇಸ್ ಅನ್ವಯ. ದಟ್ ಇಸ್ ಜನರಲಿ ಪೊಯೆಟ್ರಿ ಬಿಕಾಸ್ ಆಫ್ ದ ಕನ್ಸ್ಟ್ರೈನ್ಸ್ ಆಫ್ ದ ಛಂದಸ್, ಇಟ್ ಇಸ್ ಇನ್ ದೇರ್ ಇಸ್ ನೋ ಆಸಕ್ತಿ. ಐ ಮೀನ್ ಇವನ್ ದೇರ್ ಕುಡ್ ಬಿ ಆಸಕ್ತಿ, ಬಟ್ ಇಟ್ ಇಸ್ ಪಾಸಿಬಲ್ ದಟ್ ದೇರ್ ಆರ್ ಮೆನಿ ಕೇಸಸ್ ವೇರ್ ಆಸಕ್ತಿ ಇಸ್ ನಾಟ್ ದೇರ್. ಸೊ ದ ಫಸ್ಟ್ ಸ್ಟೆಪ್ ವಿ ಡೂ ಇಸ್ ಟು ಡೂ ದ ಅನ್ವಯ. ವೈ? ಫಾರ್ ಈಸಿಯರ್ recognition. That is why, I mean, what he says is correct. For beginners, for studying, you need to give the anvaya first so that they understand. But as you go on studying or more conversant with the language, you can understand even without having to explicitly do the anvaya. Bhavatyeva tattu sahajam. So it will require practice and samskara and the padartha jnana, of course. So all that will help. So asakti is not essential. Iti anubhava siddham. ಆಸಕ್ತಿಂ ವಿನಾಪಿ ಬೋಧಃ ಭವತಿ, ಕಿಂತು ಶೀಘ್ರಂ ಶಾಬ್ದಬೋಧಃ ಭವತಿ ಯತ್ರ ಆಸಕ್ತಿಃ. ध्वनितं चेदं नपदान्तसूत्रे भाष्ये. सो भाष्ये अपि एतदुच्यते. सो इट्स् एन् इण्टरेस्टिङ्ग् दिस् वन्. लेट्स् जस्ट् अ मोमेण्ट्, लेट्स् गो बेक् टु द व्याख्यान. सो आसक्तिः इति अन्वयप्रतियोगिपदार्थानां तद्बोधकपदानां च अव्यवधानेन उपस्थितिः आसक्तिः. सो अन्वयप्रतियोगिपदार्थानां येषां परस्पर अन्वयः भवति तादृशपदार्थाः तद्बोधकपदानां च तं पदार्थं बोधयितुं यत् पदमस्ति तच्च अव्यवधानेन उपस्थितिः. सो यत्र परस्परं व्यवधानं नास्ति. सो देम् बीङ्ग् टुगेदर्, सो रिलेटेड् वर्ड्स् आर् द वर्ड्स् विच् एक्स्प्रेस् रिलेटेड् मीनिङ्ग्स्, यतोहि पदार्थानामेव परस्पर अन्वयः. तादृशपदार्थानां बोधकानि यत् पदानि तेषाम् अव्यवधानेन उपस्थितिः आसक्तिः इत्युच्यते. अत एव गाम् इति उच्चार्य प्रहरानन्तरम् आनय इति उच्चारणे आसक्त्याभावात् न गवानयन प्रतीतिः. सो दिस् इस् अनदर् कैण्ड् आफ् आसक्ति. वाट् नागेश टेल्स् हियर् इस् नार्मल् केस् वेर् देर् इस् सम् अदर् वर्ड् इन् बिट्वीन्. अत्र तु गाम् इति इदानीम् उच्चार्यते. प्रहरानन्तरम् एकघण्टामतीत्य आनय इति उच्यते, तत्र बोधः न भवति. अत एव गाम् इत्युच्चार्य प्रहरानन्तरम् आनय इति उच्चारणे. सो इफ् ऐ से वन् थिङ्ग् नौ, से गाम् अण्ड् देन् लिव् एन् अवर् आर् अण्ड् देन् से आनय, हू विल् अण्डर्स्टाण्ड् इट्? नोबडी विल् अण्डर्स्टाण्ड् इन् दट् केस् बिकास् यु विल् नाट् इवन् रिमेम्बर् वाट् वास् सेड् अर्लियर् and what it is related to. Atah asatya bhavat na gavanayana pratitihi. So here vyavadhana is that of time, too much time, or vyavadhana by other words. Basically avyavadhana, not being separated, is asati. It is similar to samhita among letters, what we see in sandhi. Sandhau samhita apekshate. Samhita nama paraha sannikarshah. So varnanam yatha sannikarshah, सन्धौ प्रयोजकः प्रयोजिका भवति. एवं पदानां सन्निकर्षः आसक्तिः शाब्दबोधे, शीघ्रं शाब्दबोधे प्रयोजिका भवति. सो अत्र भाष्ये, नपदान्तसूत्रे भाष्ये अस्य वाक्यस्य उदाहरणं दीयते. अनड्वाहमुदहारियात्वं हरसि शिरसा कुम्भं भगिनि साचीनम् अभिधावन्तम् अद्राक्षीः इति वाक्यम्. सो हि गिव्स् एन् एक्साम्पल् आफ् अ लाङ्ग् सेण्टेन्स्. अनड्वाहम् उदहारि यात्वं हरसि इत्यस्ति. अनड्वाहं नाम वृषभम् इत्यर्थः. इट् मीन्स् अ बुल् आर् एन् आक्स्. उदहारि उदकं हरति, शी हू बेर्स् वाटर्. यात्वं हरसि शिरसा कुम्भं भगिनी, भगिनी उदहारि इति सम्बोधनं. साचीनम् अभिधावन्तम् अद्राक्षीः, साचीनं नाम पार्श्वभागात् अभिधावन्तम्, सो अप्रोचिङ्ग् फ्रम् द सैड् अद्राक्षीः. यू सा इति किमपि वाक्यम्, इट् इस् लैक् नो काण्टेक्स्ट्. सो इट् इस् जस्ट् अ वाक्य हि गिव्स् हियर्. नौ वाट् गेट्स् अन्वय वित् वाट्? हरसि, शिरसा हरसि इत्यस्ति. सो यू आर् केरियिङ्ग् आन् द हेड्. किम् अत्र आदौ अनड्वाहम् इत्युक्तं, पुनः कुम्भम् इत्युच्यते. एण्ड् सो देर् इस् टु कर्मपदस्. So there is one shirasa harasi and then abhidhavantam adrakshihi. Kasya kutra anvayaha iti chet udahari bhagini. The final anvaya is this udahari bhagini, that is, O sister who is carrying water. Yatvam kumbham harasi shirasa, kumbham shirasa harasi anadvaham sachinam abhidhavantam adrakshihi. So you saw a bull which was approaching from the side when you were carrying the kumbha on your head. Iti anvayaha. So there is no asatti here, right? So anadvaham is here and adrakshihi is finally at the end, and in between there are some unrelated words. So anadvaham sachinam abhidhavantam adrakshihi iti vivaksha, madhye anapekshitani padani or unrelated words are all there. Tathapi yatheshtam abhisambandhaha bhavati, अनानुपूर्व्येण सन्निविष्टानामपि यथेष्टम् अभिसम्बन्धो भवति इत्युक्त्वा भाष्यकारः इदमुदाहरणं प्रस्तौति. अतः आसक्तिः शाब्दबोधे बाधकं न. I mean, anasatti hi shabda bodhe badhakam na. Anasatti will not prevent shabda bodha. Shigram avilambena shabda bodhe. Mandabuddhe hai avilambena shabda bodhe. Karanam asatti hi. Sthalyam odanam pachati. Iranim prashna ha. Sthalyam odanam pachati iti vakyam. Asannam va anasannam va. Tatra sthali iti padarthasya pachati ityanena anvayaha. Madhye odanam iti padamasti. Idam vakyam asannam va anasannam va. ఆసన్నమేవ యతో హి కిం వివరణం దత్తం ప్రకృత అన్వయ బోధ అననుకూల పద అవ్యవధానం ప్రకృత అన్వయ బోధే యద్ అననుకూలం తాదృశం పదం మధ్యే అస్తి చేదేవ అనాసన్నం ఇత్యుచ్యతే అత్ర తు ఓదన పదం స్థాల్యాః పతతే అన్వయే న అననుకూలం సో ఇట్ డస్ నాట్ prevent the anvaya. There is nothing in it to prevent the anvaya between sthali and pachati. Sthalyam odanam pachati ityadav sthalyam ityasya odanapadena vyavadhane satyapi prakrita anvaya bodha anukulatvat. So, but it still helps in the anvaya bodha because odana is also related to pachati, sthalyam is also related. Ataha asannatva akshati. ఆసన్నత్వస్య క్షతిః నాస్తి ఇదం వాక్యమపి ఆసన్నమేవ అతః ప్రకృత అన్వయ బోధే అననుకూలానాం పదానాం వ్యవధానమస్తి చేదేవ ఆసక్తిః నాస్తి ఇత్యుచ్యతే ఆసక్తిః నాస్తి చేదపి శబ్దబోధః భవతి ఇది ఆసక్తి నిరూపణం. సో వి హావ్ కవర్డ్ త్రీ కారణాస్. ఫస్ట్ ఇస్ ఆకాంక్ష, యోగ్యత, ఆసక్తి. అంతిమమస్తి తాత్పర్యం. So this is not considered by tarkikaah. Tarkikaah tatparyam nangi kurvanti. Eto hi tesham mate ishvarechha eva tatparyam. Because what he says is their definition of shakti. Taihi shakti hi iti yaduchyate. Tadeva prayena tadeva tatparya padena abhitrayataha nageshena. Okay. Etad vakyam padam va. ఏతదర్థబోధాయ ఉచ్చారణీయం ఇది ఈశ్వరేచ్ఛా తాత్పర్యం. వక్తుః వివక్ష, సో వాట్ వి కాల్ అస్ వివక్ష, ద ఇంటెన్షన్ ఆఫ్ ద స్పీకర్. అనేన పదేన అయమర్థః మయా బోద్ధవ్యః, ఆర్ ఏతం అర్థం బోధయితుం మయా ఏతత్ పదం వా వాక్యం వా ఉపయుజ్యతే ఇది జ్ఞానం తాత్పర్యం. ఇచ్ఛా ఏవ తాత్పర్యం. ఏతద్ వాక్యం పదం వా ఏతదర్థబోధాయ ఉచ్చారణీయం ఇది ఈశ్వరేచ్ఛా తాత్పర్యం. సో ఇన్ వర్డ్స్ కన్వేయింగ్ స్పెసిఫిక్ మీనింగ్స్ ఇట్ ఇస్ ఈశ్వరేచ్ఛ. కింటు అత్ర ఈశ్వర పదం అత్ర వక్తుః ఉపలక్షణం బోధ్యం. నా కేవలం ఈశ్వరేచ్ఛ, వక్తుః అపి ఉపలక్షణం బోధ్యం. అన్యథా నదీ వృద్ధ్యాది పదేషు ఈశ్వరేచ్ఛాయాః అభావాత్ శాబ్దబోధ అనుపపత్తే. నదీ ఇది సంజ్ఞా అస్తి వ్యాకరణే. యూ స్త్రీఖ్యౌ నదీ ఈదూదంతౌ నిత్య స్త్రీలింగౌ నదీ సంజ్ఞౌ స్తః. ఏవం వృద్ధి ఇది పరమస్తి, వృద్ధిరాదయేచ్ ఇది సంజ్ఞా. తత్ర కుత్ర ఈశ్వరేచ్ఛ, తత్ సూత్రకారస్య ఇచ్ఛా. ఈకారాంత ఉకారాంత నదీ ఇతి శబ్దేన ఈకారాంత ఉకారాంత స్త్రీలింగానాం బోధః భవతు ఇతి సూత్రకారస్య ఇచ్ఛా. ఏవం వృద్ధిపదేన ఆదైతాం బోధః భవతు ఇతి సూత్రకారస్య ఇచ్ఛా. అతః ఈశ్వర పదం అత్ర వక్తుః ఉపలక్షణం బోధ్యం. అన్యథా నదీ వృద్ధ్యాది పదేషు ఈశ్వరేచ్ఛాయాః అభావాత్ శాబ్దబోధ అనుపపత్తే. నదీపదం ఈకారాంత ఊకారాంత బోధనేచ్ఛయా ఉచ్చరితం. ఏవం వృద్ధిపదం ఆదైచ్ బోధనేచ్ఛయా ఉచ్చరితం ఇది శాస్త్రకారమాత్ర ఇచ్ఛాయాః సత్వాత్. అత్ర తు శాస్త్రకారస్య నామ పాణినేరిచ్ఛా, నతు ఈశ్వరస్య. అతః యద్యపి ఈశ్వరేచ్ఛా ఇది సామాన్యతః ఉచ్యతే, వక్తుః ఇచ్ఛా తాత్పర్యం. So, tatparyam is the intention of the vakta, what he wants to speak. That is why there could be code words. Okay, say, mama mate maya etad uchcharyate chet ayam arthah iti kriyate kila. It is possible. So, when you want to communicate secretly, even in public, bahuhihi kriyate eva, maya eva muchyate chet asya ayam arthah, apurvam eva bhavati. Tata tatparya jnanena bodhah bhavati. Only he who knows the tatparya will understand. Okay, so ఈశ్వరేచ్ఛ ఇత్యుచ్యతే, కింటు వక్తుః ఇచ్ఛా అపి భవతి. అత ఏవ सति तात्पर्ये सर्वे सर्वार्थवाचकाः इति शाब्दिक नये घटशब्दात् पट प्रत्ययः न इत्यादि उक्तम्। पूर्वमपि उक्तम् लक्षणानिराकरणे तात्पर्य अनुपपत्तिः लक्षणाबीजम् इति उक्तम्। तत्रापि शक्तिरेव अप्रसिद्धा शक्तिरेव तात्पर्यम् यत्र अस्ति तत्र शक्तिः अङ्गीक्रियते इति नागेशस्य मतम्। अतः सर्वे सर्वार्थशाचकाः इति शाब्दिकनयः, शाब्दिकाः नाम वैयाकरणानां मतम्, अन्ये नाङ्गीकुर्वन्ति सर्वे सर्वार्थवाचकाः इति। शाब्दिकनये तात्पर्ये सति सर्वैः सर्वेण शब्देन सर्वविधोऽप्यर्थः बुध्यते। घटशब्दात् पटप्रत्ययः किमर्थं न, तत्र तात्पर्यं नास्ति इति उक्तरम्। नानार्थस्थले लोके तात्पर्यं तु, तत्तु ईश्वरेच्छा तात्पर्यमिति। लोके नानार्थस्थले तात्पर्यं तु एतत् पदं वाक्यं वा एतदर्थप्रत्ययाय मया उच्चार्यते इति प्रयोक्तुः इच्छारूपम्। किं निमित्तं यदा मया हरिशब्दः उच्चार्यते तेन किम् अभिप्रयते इति मया एव ज्ञायते। तेन तदर्थबोधनाय मया प्रयुक्तम् इति या इच्छा विद्यते तदेव तात्पर्यम्। यदि अन्यः अन्यथा बुध्यति तर्हि तात्पर्यं नावगतवान्। सो यदि इफ् द अदर् पर्सन् डस् नाट् अण्डर्स्टाण्ड् इट् मीन्स् हि डस् नाट् नो द तात्पर्य। नानार्थस्थले लोके तात्पर्यं तु एतत् पदं वाक्यं वा एतदर्थप्रत्ययाय मया उच्चार्यते इति प्रयोक्तुः इच्छारूपम्। तात्पर्यनियामकञ्च लोके प्रकरणादिकमेव। सो हौ डु यु नो द तात्पर्य देन्? बेस्ड् आन् प्रकरण एट्सेट्रा। सो बेसिकली वाट् वी अर्लियर् सा अबौट् द शक्तिनियामक इस् एक्चुली द तात्पर्यनियामक। इट् इस् नाट् टु अण्डर्स्टाण्ड् द शक्ति। सर्वेष्वर्थेषु शक्तिः अस्ति, कुत्र तात्पर्यम्? सो वक्तुः इच्छा कुत्र? सो द संयोगो विप्रयोगश्च साहचर्यं विरोधिता इत्यादि उक्तम्, तत्सर्वमपि तात्पर्यनियामकम्। सो इट् इस् टु अण्डर्स्टाण्ड् द तात्पर्य, नाट् फर् शक्ति, बिकास् शक्ति सर्वेषु अर्थेषु हरिशब्दस्य शक्तिः अस्ति। नारायणे वा इन्द्रे वा वानरे वा अश्वे वा सर्वत्र हरिपदस्य शक्तिः अस्ति। तत्र वक्तुः किं तात्पर्यम्? सो वाट् इस् द इण्टेण्ट् वित् विच् द वक्ता यूस्ड् दट् वर्ड्? तदेव प्रकरणादिभिः ज्ञायते। तात्पर्यनियामकञ्च लोके प्रकरणादिकमेव। अतो भोजनप्रकरणे सैन्धवमानिन्या इत्युक्ते सैन्धवपदेन लवणप्रत्ययः, युद्धावसरे अश्वप्रत्ययः। अत एव सैन्धवमानय, सैन्धवः लवणम्, सैन्धवः अश्वः, कः आनेतव्यः? यदि भुञ्जानेन सैन्धवः पृच्छ्यते तर्हि लवणमेव आनीयते, न तु अश्वः। यदि योद्धुं प्रस्थितेन सैन्धवः पृच्छ्यते तर्हि अश्व एव आनीयते, न तु लवणम् इति प्रकरणेन तत्र तात्पर्यनियमः भवति, न तु शक्तिनियमः। ऐ मीन् वाट् वि काल् अ शक्तिनियम इस् आक्चुलि बेसिकलि तात्पर्यनियम। वेदवाक्ये च ऐश्वरतात्पर्याद् अर्थबोधः। सो यत्र वेदवाक्येषु अर्थे सन्देहः भवति तत्र ईश्वरस्य कुत्र तात्पर्यम् इत्यादि विचार्य मीमांसाशास्त्रेण अर्थबोधः, अर्थनिर्णयः क्रियते। एतदेव व्याख्याने उच्यते, वक्त्रा उच्चारिते वाक्ये पदे वा श्रोतुः तात्पर्यज्ञानाभावे तादृश अर्थ अनुपस्थितेः सर्वजन अनुभवसिद्धत्वात्। सो द तात्पर्य is always there. When we say tatparya is a sahakari karana, it is not tatparya itself. Tatparyam nama anena vakyena maya ayam arthaha bodhaniyaha iti tatparyam sarvesham vaktrunam bhavati. Tasya tatparyasya jnanam shrotuha astiva iti prashnaha. So does the shrota understand the tatparya? Yadi tatparyam na jnayate tarhi shabda bodhaha na bhavati. Athava tasya arthasya bodhaha na bhavati. वक्त्रा उच्चारिते वाक्ये पदे वा श्रोतुः तात्पर्यज्ञानाभावे तादृश अर्थ अनुपस्थितेः सर्वजन अनुभवसिद्धत्वात्। सो इफ् द श्रोता डस् नाट् नो द तात्पर्य आफ् द वक्ता, देन् तादृश अर्थ अनुपस्थितेः द मीनिङ्ग् विच् इस् इण्टेण्डेड् बै द वक्ता इस् नाट् कन्वेड् इति सर्वजन अनुभवसिद्धत्वात् तद्ज्ञानमेव हेतुः। किन्तु नाम तात्पर्य ज्ञानं हेतुः, न तु स्वरूपम्। सो इट् इस् नाट् तात्पर्य विच् असिस्ट् शाब्दबोध बै इट् सेल्फ्। तात्पर्य ज्ञान श्रोतुः ವಕ್ತೃತಾತ್ಪರ್ಯ ಜ್ಞಾನಂ ಶ್ರೋತು ಅಸ್ತಿ ವಾ. ಸೊ ಶ್ರೋತರಿ ವಕ್ತೃತಾತ್ಪರ್ಯ ಜ್ಞಾನಂ ಶಬ್ದಬೋಧೆ ಸಹಕಾರಿ. ಸೊ ಇಟ್ ಇಸ್ ನಾಟ್ ತಾತ್ಪರ್ಯ ಬೈ ಇಟ್ ಸೆಲ್ಫ್. ತಾತ್ಪರ್ಯ ಇಸ್ ದೇರ್ ವೆನ್ ಎವರ್ ಎನಿ ವಕ್ತ ಸೇಸ್ ಎನಿಥಿಂಗ್. ಯಃ ಕೋಪಿ ಕಿಮಪಿ ಉಚ್ಚಾರಯತಿ ತತ್ರ ತಾತ್ಪರ್ಯಂ ಭವತ್ಯೇವ. ತಸ್ಯ ತಾತ್ಪರ್ಯಸ್ಯ ಜ್ಞಾನಂ ಶ್ರೋತರಿ ಅಸ್ತಿ ಚೇತ್ ತಾದೃಶಸ್ಯ ಅರ್ಥಸ್ಯ ಭಾನಂ ಭವತಿ ಇತಿ. ತದ್ ಜ್ಞಾನಂ ನಾಮ ತಾತ್ಪರ್ಯ ಜ್ಞಾನಂ ಶಬ್ದಬೋಧೆ ಹೇತು ಅಥವಾ ಸಹಕಾರಿ ಕಾರಣಂ. ತದ್ ಜ್ಞಾನಂ ಚ ಪ್ರಕರಣಾದ್ ಭವತಿ. ಸೊ ತಾತ್ಪರ್ಯ ಜ್ಞಾನಂ ಪ್ರಕರಣಾದಿಭಿಃ ಭವತಿ ಇತಿ ಉಕ್ತಪ್ರಾಯಂ. ಅತಃ ತತ್ಪದ ಜನ್ಯ ತದರ್ಥ ವಿಷಯಕ ಶಬ್ದಬೋಧಂ ಪ್ರತಿ. ಸೊ ತೇನ ಪದೇನ ತಸ್ಮಿನ್ ಅರ್ಥ ಸಹ ಅರ್ಥ ಬೋದ್ಧವ್ಯಃ ತದರ್ಥ ವಿಷಯಕ ಶಬ್ದಬೋಧಂ ಪ್ರತಿ ವಕ್ತೃತಾತ್ಪರ್ಯ ಜ್ಞಾನಂ ಕಾರಣಂ. ಸೊ ದೇರ್ ಆರ್ ಸಮ್ ವರ್ಡ್ಸ್ ಇನ್ ಬಿಟ್ವೀನ್ ವಿಚ್ ಆರ್ ನಾಟ್ ವೆರಿ ಎಸೆನ್ಷಿಯಲ್. ಸೊ ಫಾರ್ ಸಂಬಡಿ ಟು ಅಂಡರ್ಸ್ಟ್ಯಾಂಡ್ ಅ ಪರ್ಟಿಕ್ಯುಲರ್ ಮೀನಿಂಗ್ ಫ್ರಮ್ ಅ ಪರ್ಟಿಕ್ಯುಲರ್ ವರ್ಡ್ ವಾಟ್ ಇಸ್ ಎಸೆನ್ಷಿಯಲ್ ಇಸ್ ನೋಯಿಂಗ್ ದ ತಾತ್ಪರ್ಯ ಆಫ್ ದ ವಕ್ತ. ಯದಿ ತಾತ್ಪರ್ಯಂ ನ ಜ್ಞಾಯತೆ ತರ್ಹಿ ಅನ್ಯಥಾ ಅರ್ಥಸ್ಯ ಪ್ರತೀತಿ ಭವತಿ. ಸೊ ಯು ಕ್ಯಾನ್ ಅಂಡರ್ಸ್ಟ್ಯಾಂಡ್ ಇಟ್ ಅದರ್ವೈಸ್ ಆಲ್ಸೋ. ನನು ಪ್ರಕರಣಾದಿನಾ ಶಕ್ತಿ ನಿಯಾಮಕತ್ವೇ ಶಕ್ತ್ಯಾ ಏವ ನಿರ್ವಾಹೆ ಕಿಂ ತಾತ್ಪರ್ಯೇಣ ಇತಿ ಚೇತ್. ಏತತ್ ತಾರ್ಕಿಕೈ ರುಚ್ಯತೆ. ಕಿಮರ್ಥಂ ತಾತ್ಪರ್ಯಮಿತಿ ಪೃಥಗ್ ಅಂಗೀಕರ್ತವ್ಯಂ. ಶಕ್ತಿ ಅಸ್ತಿ ಪ್ರಕರಣಾದೀನಿ ಶಕ್ತಿ ನಿಯಾಮಕಾನಿ ಇತ್ಯಪಿ ಉಕ್ತಂ ಸಂಯೋಗೋ ವಿಪ್ರಯೋಗಶ್ಚ ಇತ್ಯಾದಿ. ತರ್ಹಿ ಶಕ್ತ್ಯಾ ಏವ ನಿರ್ವಾಹೆ. ಸೊ ಶಕ್ತಿ ಇತ್ಯನೇನೈವ ಅಲಂ ತಾತ್ಪರ್ಯೇಣ ಕಿಂ ಇತಿ ಚೇತ್. ಅಸ್ಮಾತ್ ಶಬ್ದಾತ್ ಅರ್ಥದ್ವಯ ವಿಶೇಷಕಃ ಬೋಧಃ ಜಾಯತೆ ಅರ್ಥದ್ವಯೇ ಶಕ್ತಿ ಸತ್ವಾತ್. ತಾತ್ಪರ್ಯಂ ತು ಕ್ವ ಇತಿ ನ ಜಾನೀಮಃ ಇತಿ ಅನುಭವ ವಿರೋಧಾತ್. ಸೊ ದ ಡಿಫರೆನ್ಸ್ ಬಿಟ್ವೀನ್ ಶಕ್ತಿ ಅಂಡ್ ತಾತ್ಪರ್ಯ ಇಸ್ ಅನುಭವ ಸಿದ್ಧ. ಅಸ್ಮಾಭಿಃ ಕಶ್ಚಿತ್ ಶಬ್ದ ಶ್ರೂಯತೆ ಅರ್ಥದ್ವಯ ವಿಶೇಷಕಃ ಬೋಧಃ. ಅರ್ಥದ್ವಯಮಪಿ ಪ್ರತೀಯತೆ ಅರ್ಥದ್ವಯೇ ಶಕ್ತಿ ಸತ್ವಾತ್. ಸೊ ಅರ್ಥದ್ವಯೇಪಿ ಶಕ್ತಿ ಅಸ್ತಿ ಯಥಾ ಹರಿಹಿ ಇತ್ಯುಚ್ಯತೆ. ತೇನ ಪದೇನ ವಿಷ್ಣೋರಪಿ ಪ್ರತೀತಿ ಭವತಿ ಇಂದ್ರಸ್ಯಾಪಿ ಪ್ರತೀತಿ ಭವತಿ ಅರ್ಥದ್ವಯೇ ಶಕ್ತಿ ಸತ್ವಾತ್. ತಾತ್ಪರ್ಯಂ ತು ಕ್ವ ಕಿಂ ತಾತ್ಪರ್ಯಂ ಇತಿ ನ ಜಾನೀಮಃ ಇತಿ ಅನುಭವ ಭವತಿ. ವಿ ಡೂ ಇಟ್ ಡಸ್ ಹ್ಯಾಪನ್ ಸಮ್ ಟೈಮ್ಸ್ ವೆನ್ ಪೀಪಲ್ ಯೂಸ್ ಅ ನಾನಾರ್ಥಕ ಶಬ್ದ ವಿ ಸೇ ವಿ ನೋ ದ ಟೂ ಡಿಫರೆಂಟ್ ಮೀನಿಂಗ್ಸ್. ಉಭಯಂ ಅರ್ಥದ್ವಯಮಪಿ ಜ್ಞಾಯತೆ ಕಿಂತು ತಾತ್ಪರ್ಯಂ ಕಿಂ ವಿತ್ ವಾಟ್ ಇಂಟೆಂಟ್ ಡಿಡ್ ಹೀ ಯೂಸ್ ದಿಸ್ ವರ್ಡ್ ಇತಿ ನ ಜ್ಞಾಯತೆ ಇತಿ ಅನುಭವ ಸಿದ್ಧಂ. ಅತಯೇವ ಪಯ ಆನಯ ಇತ್ಯುಕ್ತೆ. ಸೊ ಪಯ ಆನಯ ಇತ್ಯುಕ್ತೆ ಅಪ್ರಕರಣಜ್ಞಸ್ಯ ಹೀ ಹೂ ಡಸ್ ನಾಟ್ ನೋ ದ ಪ್ರಕರಣ ದುಗ್ಧಂ ಜಲಂ ವಾ ಆನೇಯಂ ಇತಿ ಪ್ರಶ್ನ ಸಂಗಚ್ಚತೆ. ಹೀ ನೋಸ್ ದ ಶಕ್ತಿ ಪಯಶಬ್ದಸ್ಯ ದುಗ್ಧೇ ಶಕ್ತಿ ಜಲೇ ಶಕ್ತಿ ಇತಿ ಶಕ್ತಿ ಜ್ಞಾನಂ ಅಸ್ತಿ. ಹೀ ಡಸ್ ಅಂಡರ್ಸ್ಟ್ಯಾಂಡ್ ದ ಶಕ್ತಿ ತಥಾಪಿ ಮಯಾ ದುಗ್ಧಂ ಆನೇಯಂ ವಾ ಜಲಂ ಆನೇಯಂ ವಾ ಇತಿ ನ ಜ್ಞಾಯತೆ ಪ್ರಶ್ನ ಕರೋತಿ. ಸೊ ಹಿ ಲಾಸ್ಟ್ ಶುಡ್ ಐ ಬ್ರಿಂಗ್ ದುಗ್ಧ ಆರ್ ಜಲ ವೈ ಬಿಕಾಸ್ ಶಕ್ತಿ ಇಸ್ ದೇರ್. ಯದಿ ಶಕ್ತಿ ನಾಸ್ತಿ ತರ್ಹಿ ಉಭಯೋ ಪ್ರತೀತಿರೇವ ನ ಭವತಿ. ಹಿ ಇಸ್ ಅಂಡರ್ಸ್ಟ್ಯಾಂಡಿಂಗ್ ಬೋತ್ ದಟ್ ಇಸ್ ಬೋತ್ ಪದಾರ್ಥ ಉಭಯೋ ಪದಾರ್ಥಯೋ ಉಪಸ್ಥಿತಿ ಶಕ್ತ್ಯಾ ಭವತಿ ಕಿಂತು ತಾತ್ಪರ್ಯ ವಿಷಯೇ ಪ್ರಶ್ನ ಉದೇತಿ. ಅನೇನೈವ ಜ್ಞಾಯತೆ ಶಕ್ತಿ ಭಿನ್ನ ತಾತ್ಪರ್ಯಂ ಭಿನ್ನಂ ಚೇತಿ. ಓಕೆ, ಸೊ ಇಟ್ ಇಸ್ ಬಿಕಾಸ್ ಆಫ್ ದಿಸ್ ದಟ್ ವಿ ಅಂಡರ್ಸ್ಟ್ಯಾಂಡ್ ದಟ್ ತಾತ್ಪರ್ಯ ಇಸ್ ಸೆಪರೇಟ್ ಫ್ರಮ್ ಶಕ್ತಿ. ಸೊ ದ ಪ್ರಕರಣ ಅಂಡ್ ಆಲ್ ವಿಲ್ ಹೆಲ್ಪ್ ಇನ್ ಡಿಟರ್ಮಿನಿಂಗ್ ದ ತಾತ್ಪರ್ಯ ನಾಟ್ ದ ಶಕ್ತಿ. ಶಕ್ತಿಸ್ತು ಸರ್ವತ್ರ ಭವೇತ್ ಕುತ್ರ ತಾತ್ಪರ್ಯಂ ಇತಿ ಜ್ಞಾತುಂ ಪ್ರಕರಣಾದಿಕಂ ಸಹಕರೋತಿ ಇತಿ ಆಕಾಂಕ್ಷಾದಿ ವಿಚಾರ. ಅರ್ಥಾತ್ ಶಾಬ್ದಬೋಧ ಸಹಕಾರಿ ಕಾರಣ ನಿರೂಪಣಂ ಅತ್ರ ಸಮಾಪ್ತಂ. ಸೊ ದಟ್ ಎಂಡ್ಸ್ ದ ಪ್ರಕರಣ. ಅಥ ಸಕಲ ಶಬ್ದ ಮೂಲಭೂತ ಧಾತ್ವಭೂತತ್ವಾ ಧಾತ್ವರ್ಥೋ ನಿರೂಪ್ಯತೆ. ಸೊ ನೆಕ್ಸ್ಟ್ ಹಿ ಸ್ಟಾರ್ಟ್ಸ್ ವಿತ್ ದ ಧಾತ್ವರ್ಥ ಪ್ರಕರಣ. ಸೊ ಬೇಸಿಕಲಿ ದ ಪರಮ ಲಘು ಮಂಜೋಷ ಅಂಡ್ ಆಲ್ಸೋ ದ ಲಘು ಮಂಜೋಷ ಇಸ್ ಡಿವೈಡೆಡ್ ಇಂಟು ಟೂ ಪಾರ್ಟ್ಸ್. ಓಕೆ, ಸೊ ಒನ್ ಇಸ್ ದ ತಾತ್ಪರ್ಯಾಂತ. ಸೊ ಸ್ಟಾರ್ಟಿಂಗ್ ಫ್ರಮ್ ದ ಬಿಗಿನಿಂಗ್ ಟಿಲ್ ದ ಎಂಡ್ ಆಫ್ ತಾತ್ಪರ್ಯ ದ ಡಿಸ್ಕಷನ್ ಇಸ್ ಆಲ್ ರಿಗಾರ್ಡಿಂಗ್ ಅ ವರ್ಡ್ ಎನಿ ವರ್ಡ್. ಓಕೆ, ಸೊ ಇಟ್ ಕುಡ್ ಬಿ ಎನಿ ವರ್ಡ್ ವರ್ಡ್ ಇನ್ ಜನರಲ್. ಶಬ್ದ ವಿಷಯೇ ಅತ್ರ ಚರ್ಚಾ. ವಿ ಆರ್ ನಾಟ್ ವರೀಡ್ ಅಬೌಟ್ ವಾಟ್ ಕೈಂಡ್ ಆಫ್ ಅ ವರ್ಡ್ ಇಟ್ ಇಸ್. ತಿಂಗಂತಂ ವಾ ಸುಬಂತಂ ವಾ ಕೃದಂತಹ ವಾ ಸಮಾಸೋ ವಾ ಇತ್ಯಾದಿ ಕಿಮಪಿ ನ ವಿಚಾರ್ಯತೆ. ಯಃ ಕೋಪಿ ಶಬ್ದ. ಸೊ ಶಬ್ದ ಇನ್ ಜನರಲ್ ಇಸ್ ಡಿಸ್ಕಸ್ಡ್ ಇನ್ ದಿಸ್ ಫಸ್ಟ್ ಪಾರ್ಟ್. ಸೊ ಹೆನ್ಸ್ ಫೋರ್ತ್ ಇನ್ ದ ಸೆಕೆಂಡ್ ಪಾರ್ಟ್ ಹಿ ಗೋಸ್ ಇನ್ ಟು ದ ಡಿಫರೆಂಟ್ ಕೈಂಡ್ಸ್. तत्र धातोः कः अर्थः, प्रत्ययस्य तिङ् प्रत्ययस्य कोऽर्थः, प्रातिपदिकस्य कः अर्थः, सुपः कः अर्थः, सङ्ख्या, निपाताः, समासाः इत्येवं भिन्नाः विचाराः अग्रे उच्यन्ते. सो दे आर् आल् एन्क्वैरीस् रिगार्डिङ्ग् स्पेसिफिक् कैण्ड्स् आफ् वर्ड्स्. सो दिस् फस्ट् पार्ट् विच् वि कम्प्लीटेड् नौ, इट् डिस्कसस् वर्ड् आर् शब्द इन् जनरल्. Okay. So similar organization is also in the Laghu Manjusha. Tatrapi Tatparyantam Prakaranam. So when it is Tatparyanta, it means till the end of Tatparya. That is the related discussion regarding the Shabda. Okay. So the next is the next portion is almost what we saw in, what we see in the Bhushanasara also. Very similar. You have the Dhatvartha, Lakarartha, Nipatartha, etc. Okay. Question, for the exam up to what level is the syllabus of Paramalaghu Manjusha? It depends. So some universities have the whole of Paramalaghu Manjusha. Some universities like the RSVP, that is the Rashtriya Samskrita Vidyapeetha, has only Paramalaghu Manjusha till Tatparyanta. The Karnataka Samskrita University, it has the complete Paramalaghu Manjusha and also Laghu Manjusha till Tatparya. Okay, so that prescribes both texts, which is actually good in a way because the Laghu Manjusha is a much, stronger or deeper text than the Paramalaghu Manjusha. Okay, of course tougher, but it has more, Gabhira. It is more Gabhira than the Paramalaghu Manjusha. So they have the full Paramalaghu Manjusha and also Laghu Manjusha. So is it possible to complete Paramalaghu Manjusha in one semester? Quite possible. See, we have done 15 classes so far. We have covered the first part. So the next part is another. We have covered 50 pages of 130, which is another 80 pages, which will probably take another 20 classes. So should be, if you are talking over 6 months for a semester with at least 2 classes per week, you can easily complete Paramalaghu Manjusha. Laghu Manjusha is tougher. It is, I don't think any university has the entire Laghu Manjusha. They have only, mostly they study only till Tatparyanta. Because the detailed discussion of Dhatvartha, etc. is also in the Bhushanasara. Bhushanasara gives quite a good overview of those also. Whereas this discussion is not found that much in Bhushanasara. The relay discussion regarding Shabda. He does take Sphota to a small extent, but Nagesha Siddhanta on all these is much deeper. So they study the Laghu Manjusha, this portion, the first portion of the Laghu Manjusha. So each semester, I think, or each year has 5 papers. There are 5 in each this. So they have, I think they are still going by the yearly basis. So 5 papers in the year is there. Okay. So now we will take a quick look at what we have done today and also this. So Asattihi. ప్రకృత అన్వయబోధ అననుకూల పద అవ్యవధానం ఆసక్తి ఇత్యుచ్యతే. ప్రకృత అన్వయే అన్వయబోధే అనుపయోగీనాం పదానాం వ్యవధానం న భవేత్ తదా ఆసన్నం ఇత్యుచ్యతే. గిరిర్భుక్తం అగ్నిమాన్ దేవదత్తేన ఇతి తు అనాసన్నం. తత్ర గిరిహి అగ్నిమాన్ ఇతి అన్వయ, మధ్యే భుక్తం ఇతి అన్వయబోధే అననుకూలం. ఇట్ ప్రివెంట్స్ అన్వయబోధ బికాస్ యూ విల్ టెండ్ టు associate Girihi with Bhuktam and then wonder, even if for a moment, how can Giri be Bhukta? Ataha, etat anasannam. Mandabuddhehe avilambena shabdabodhe asattihi karanam, kintu sarvatha hetutvam na. Arthat asattim vina shabdabodhaha na bhavati iti na. Antimam karanam asti tatparyam. Etat padamva etad arthabodhaya uccharaniyam iti. ఈశ్వరస్య ఇచ్ఛ అథవా వక్తుః ఇచ్ఛ ఏవ తాత్పర్యం ఇత్యుచ్యతే. వక్త తాత్పర్య జ్ఞానం హేతుః శబ్దబోధం ప్రతి. సో తజన్య తదర్థ విషయక శబ్దబోధం ప్రతి. శబ్దబోధ మైట్ హ్యాపన్ ఈవన్ వితౌట్ తాత్పర్య జ్ఞాన, బట్ దెర్ ఇస్ నో గ్యారంటీ దట్ యు అండర్స్టాండ్ వాట్ ద వక్త ఇంటెండెడ్ టు కన్వే. ఓకే, సో యు మైట్ అండర్స్టాండ్, బట్ యు మైట్ అండర్స్టాండ్ ఇట్ డిఫరెంట్లీ, సో ఇట్ లీడ్స్ టు మిస్ అండర్స్టాండింగ్. So among the four Shabda Bodha Sahakari Karanas, Akanksha is essential for Vakya Bodha. To understand a complete Vakya, Akanksha is essential. Yogyata is not required for Shabda Bodha. It is required for Pramanika Shabda Bodha. For it to be Pramana, you need Yogyata. But just for understanding, you don't need it. Asatti, you need it for a quick understanding. That is, if we are Manda Buddhis, we need it for quick understanding. Otherwise, Asatti is not required. That is why, as we discussed, most of the shlokas, they are comprehensible even though there is no Asatti. There is Asatti has a problem. Tatparya is essential for correctly understanding the intention of the Vakta. So, Tatparya is also not essential for Shabda Bodha. So, even without Tatparya, you can understand it. But there is no guarantee that you are understanding the intention correctly. So, there could be a misunderstanding if you do not know the Tatparya. Yes, Bhanu Prakash.
Ma'am, you just mentioned that the asati between the words is essential, but they can be separated by words that are anukula.
So, even ananukula words, it is not essential. I mean, even if it is separated by ananukula words, it is possible for Shabda Bodha, correct Shabda Bodha to happen.
Yeah, but in the case of a sloka, the words are all anukula only because you are talking about a single God.
As we saw that Vakya, it need not be always anukula. A shloka which is, normal shlokas or easy shlokas, it might be anukula. But definitely there are cases in shlokas where we call, that is a dosha in kavya, where they call it duranvaya. So, the anvaya, there is one word here which gets anvaya with another word at the end of the shloka. And the words in between are not directly related. So, even in gadya, if you read, Kadambari or any champu, so they start with something. The words in between are not directly related to the beginning and the end. Durvasam comes here, Durvasasam, and then there is some relation. So, you do not understand. So, duranvaya is a kavya dosha. It is also because asati is required for easier understanding. It is not that in all shlokas the intervening words are all anukula. If it is anukula, there is asati. There is no problem at all. Then why do we do the anvaya? Because the anukula words are not always together. Okay. So they might be the shloka might have a particular meaning, but does not mean that the related words are all together. Okay. So, if the related words are together, then it is asana and there is no problem at all. But even if there are unrelated words in between, we will still understand it. It will not prevent Shabda Bodha. Okay. So, this is the first part. So, a quick look at what we did from the beginning in this part. So, adau sphota bheda nirupanam, ashtau sphotaha ityanena, sphotasya bhedaha nirupitaha, tatra vakya sphoto mukhyaha, tasya iva loke arthabodhakatvat, iti vakya sphotasya iva mukhyatvam pratipaditam, varnadi vibhagasya cha kalpanikatvam. So, the varnaha or the asthaninaha adeshaha, iti sarvepi kalpanikaha, upaya pratipatyarthaha, upaya avyavasthitaha ityevam, varananam, padanam, sarvesham api kalpanikatvam pratipaditam. Aptalakshanam, atha shabdaha pramanam bhavati, kidasha shabdaha, aptavakya rupaha shabdaha pramanam bhavati, aptascha anubhavena nishchaya jnanavan, ragadivashadapi na anyathavadi, tadrishasyaiva vakyam pramanam bhavati, shabda pramanena yajnanam jayate, సహ శాబ్దబోధ ఇత్యుచ్యతే. శాబ్దబోధే కార్యకారణ భావ. శాబ్దబోధే కిం కారణం ఇది చేత వృత్తి జ్ఞానం హేతు. తద్ధర్మావచ్ఛిన్న శాబ్దబుద్ధిత్వావచ్ఛిన్నం ప్రతి తద్ధర్మావచ్ఛిన్న నిరూపిత వృత్తి విశిష్ట జ్ఞానం హేతు. జ్ఞానే వృత్తి వైశిష్ట్యం కీదృశం. తద్విషయక ఉద్బుద్ధ సంస్కార పదజ్ఞానం ఇత్యాది సర్వం ప్రతిపాదితం. కల్పిత కార్యకారణ భావస్య ఫలం. కిం ఫలం ఏతాదృశ కార్యకారణ భావే. అతయేవ అగృహీత వృత్తికస్య శాబ్దబోధో నభవతి. విస్మృత వృత్తికస్యాపి శాబ్దబోధో నభవతి. తద్ధర్మావచ్ఛిన్నస్యైవ బోధః. అతయేవ ఆకాశస్య బోధో వా చైత్రస్య బోధో వా నభవతి ఇత్యాది సర్వం చర్చితం. వృత్తేః త్రైవిధ్యం. తత్ర వృత్తిః ವೃತ್ತಿಜ್ಞಾನಂ ಹೇತು ಇತ್ಯುಕ್ತಂ ಸಾ ವೃತ್ತಿ ತ್ರಿಧಾ ಶಕ್ತಿ ಲಕ್ಷಣ ವ್ಯಂಜನ ಇತ್ಯುಕ್ತ್ವ ಶಕ್ತಿ ನಿರೂಪಣಂ ಆರಬ್ಧಂ. ಶಕ್ತಿ ವಿಷಯಕಂ ನೈಯಾಯಿಕ ಮತಂ ಶಕ್ತಿ ವಿಷಯಕಂ ನೈಯಾಯಿಕ ಮತಂ ಆದೌ ಪ್ರತಿಪಾದಿತಂ ನಾಮ ಅಸ್ಮಾತ್ ಪದಾದ್ ಅಯಮರ್ಥೋ ಬೋದ್ಧವ್ಯಃ ಇತಿ ಈಶ್ವರೇಚ್ಛಾ ಶಕ್ತಿ ಶೈವ ಸಂಕೇತ ಸಂಬಂಧಃ ಇತ್ಯೇವಂ ಈಶ್ವರೇಚ್ಛಾಯಾಃ ಶಕ್ತಿತ್ವಂ ತಾರ್ಕಿಕ ಅಂಗೀಕುರ್ವಂತಿ ತಸ್ಯ ಮತಸ್ಯ ಖಂಡನಂ ಕೃತಂ ನಾಗೇಶೇನ. ಯತೋ ಹಿ ಇಚ್ಛಾ ಸಂಬಂಧಃ ಭವಿತುಂ ನಾರ್ಹತಿ ದ್ವಿಷ್ಠ ಸಂಯೋಗೋ ಹಿ ಸಂಬಂಧೋ ಹಿ ದ್ವಿಷ್ಠತ್ವೇ ಸತಿ ದ್ವಿಷ್ಠ ಆಶ್ರಯತೆಯ ವಿಶಿಷ್ಟ ಬುದ್ಧಿ ನಿಯಾಮಕ. ಸಂಬಂಧಿದ್ವಯ ಭಿನ್ನತ್ವೇ ಸತಿ ದ್ವಿಷ್ಠತ್ವೇ ಸತಿ ಆಶ್ರಯತೆಯ ವಿಶಿಷ್ಟ ಬುದ್ಧಿ ನಿಯಾಮಕ ಸಯೇವ ಸಂಬಂಧ. ಪದ ಇಚ್ಛಾವಾನ್ ಇತಿ ವಾ ಅರ್ಥ ಇಚ್ಛಾವಾನ್ ಇತಿ ವಾ ವ್ಯವಹಾರ ನ ಭವತಿ ಅತಃ ಇದಂ ನ ಯುಕ್ತಂ ಇತ್ಯುಕ್ತ್ವ ಮಂಜೂಷಾಕಾರಸ್ಯ ಕಿಂ ಮತಂ ಶಕ್ತಿ ವಿಷಯಕಂ. ತತ್ರ ಶಕ್ತಿ ನಾಮ ಪದಾರ್ಥಯೋಃ ಸಂಬಂಧಃ ಪರಪದಾರ್ಥಯೋಃ ಸಂಬಂಧಃ ವಾಚ್ಯವಾಚಕ ಪ್ರಭಾವ ಪರಪರ್ಯಾಯ ತದ್ಗ್ರಾಹಕಂಚ ಇತರೇತರ ಅಧ್ಯಾಸ ಮೂಲಕಂ ತಾದಾತ್ಮ್ಯಂ ಇತ್ಯೇವಂ ಸ್ವೀಯಂ ಮತಂ ಉಕ್ತ್ವಾ ತಾದಾತ್ಮ್ಯಸ್ಯ ಸಂಬಂಧತ್ವಂ ನಿರೂಪಿತಂ. ಶಕ್ತೀನಾಮಪ್ಯಸೌ ಶಕ್ತಿಃ ಗುಣಾನಾಮಪ್ಯಸೌ ಗುಣಃ ಇತಿ ಶಕ್ತೇಃ ಕಾರ್ಯಜನನೆ ಕಶ್ಚಿತ್ ಸಂಬಂಧಃ ಅಪೇಕ್ಷ್ಯತೆ ತದೇವ ತಾದಾತ್ಮ್ಯಂ ಇತಿ ಪ್ರತಿಪಾದಿತಂ. ಶಬ್ದಾರ್ಥಯೋಃ ತಾದಾತ್ಮ್ಯಂ ಕಥಂ ಭವತಿ ಇತಿ ಈಶ್ವರೀಯ ಸಂಕೇತಸ್ಯ ಶಕ್ತಿತ್ವ ನಿರಾಸಃ ಸಂಕೇತಃ ಏವ ಶಕ್ತಿಃ ಇತಿ ಮತಂ ನಿರಾಕೃತಂ. ತತಶ್ಚ ತಾದಾತ್ಮ್ಯ ಸ್ವರೂಪ ಪ್ರತಿಪಾದನಂ ಕೀದೃಶಂ ತಾದಾತ್ಮ್ಯಂ ಇತ್ಯುಕ್ತೆ ಅರ್ಥಃ ಶಬ್ದಃ ಉಕ್ತಃ ಅಥವಾ ಶ್ಲೋಕಃ ಉಕ್ತಃ ಅಥವಾ ಅರ್ಥಂ ಬ್ರವೀತಿ ಇತ್ಯೇವಂ ಶಬ್ದಧರ್ಮಸ್ಯ ಉಚ್ಚಾರಣಸ್ಯ ಅರ್ಥೇ ಆರೋಪಃ. ಓಂ ಇತ್ಯೇಕಾಕ್ಷರಂ ಬ್ರಹ್ಮ ಇತಿ ಶಬ್ದ ಅರ್ಥಯೋಃ ಸಾಮಾನಾಧಿಕರಣ್ಯಂ ಇತ್ಯಾದಿ ರೀತ್ಯಾ ತಾದಾತ್ಮ್ಯಸ್ಯ ಸ್ವರೂಪಂ ಪ್ರತಿಪಾದಿತಂ. ಬೌದ್ಧ ಪದಾರ್ಥ ನಿರೂಪಣಂ ವನ್ನಿ ಶಬ್ದೋಚ್ಚಾರಣೆ ಯದಿ ತಾದಾತ್ಮ್ಯಂ ಅಂಗೀಕ್ರಿಯತೆ ತರ್ಹಿ ವನ್ನಿ ಶಬ್ದೋಚ್ಚಾರಣೆ ಮುಖೇ ದಾಹಾಪತ್ತಿಃ ಇತ್ಯಾದಿ ಪ್ರದರ್ಶಿತೆ ಬೌದ್ಧಸ್ಯ ಅರ್ಥಸ್ಯ ಬೌದ್ಧಸ್ಯ ಚ ಶಬ್ದಸ್ಯೈವ ತಾದಾತ್ಮ್ಯಂ ಪ್ರತಿಪಾದಿತಂ. ತಸ್ಯ ಅವಶ್ಯಕತ ಯಥಾ ಶಶಶಂಗಾದೀನಾಂ ಅರ್ಥವತ್ವಾದ ಪ್ರಾತಿಪದಿಕತ್ವ ಸಿದ್ಧಯೇ ಬೌದ್ಧ ಪದಾರ್ಥಸ್ಯ ಅಂಗೀಕಾರಃ ಕರ್ತವ್ಯಃ ಇತಿ. ಅಪಭ್ರಂಶೇಷು ಶಕ್ತಿ ಸಾಧನಂ ಅಪಭ್ರಂಶೇಷು ಅಪಿ ಶಕ್ತಿ ಅಸ್ತಿ ಅತಃ ಬೋಧಃ ಭವತಿ ಇತಿ ವೈಯಾಕರಣ ಮತಂ ಪ್ರತಿಪಾದಿತಂ. ಅಪಭ್ರಂಶೇಷು ಶಕ್ತಿ ವಿಷಯಕ ತಾರ್ಕಿಕ ಮತ ನಿರಾಸಃ ತಾರ್ಕಿಕಾಣಾಂ ಮತೇ ಅಪಭ್ರಂಶೇ ಸಾಧುಶಬ್ದ ಸ್ಮರಣದ್ವಾರಾ ಅಥವಾ ಶಕ್ತಿಭ್ರಮಾತ್ ಬೋಧಃ ಇತಿ ತಾರ್ಕಿಕಾಃ ತನ್ನಿರಾಕೃತ್ಯ ತತ್ರ ಶಕ್ತಿಃ ಅಸ್ತ್ಯೇವ ಕಿಂತು ಸಾಧುತ್ವಂ ನಾಮ ಧರ್ಮಜನಕತ ಅಥವಾ ಪುಣ್ಯಜನಕತ್ವಂ ನಾಸ್ತಿ ಇತಿ ಪ್ರತಿಪಾದಿತಂ. ಶಕ್ತೇಃ ತ್ರೈವಿಧ್ಯಂ ಯೋಗಃ ರೂಢಿಃ ಯೋಗರೂಢಿಃ ಇತ್ಯೇವಂ ತ್ರೇಧಾ ಶಕ್ತಿಃ ಭವತಿ ತಸ್ಯ ಉದಾಹರಣಾನಿ ಚ ಪ್ರತಿಪಾದಿತಾನಿ. ಸಂಯೋಗಾದೀನಾಂ ಶಕ್ತಿ ನಿಯಾಮಕತ್ವಂ ಸಂಯೋಗೋ ವಿಪ್ರಯೋಗಶ್ಚ ಸಾಹಚರ್ಯಂ ವಿರೋಧಿತ ಅರ್ಥ ಪ್ರಕರಣಂ ಲಿಂಗಂ ಶಬ್ದಸ್ಯಾನ್ಯಸ್ಯ ಸನ್ನಿಧಿಃ ಸಾಮರ್ಥ್ಯಂ ಔಚಿತಿ ದೇಶಃ ಕಾಲೋ ವ್ಯಕ್ತಿ ಸ್ವರಾದಯಃ ಇತ್ಯೇವಂ ಶಕ್ತಿ ನಿಯಾಮಕಾಃ ಯತ್ರ ನಾನಾರ್ಥಕಾಃ ಶಬ್ದಾಃ ಉಪಯುಜ್ಯಂತೆ ತತ್ರ ಕುತ್ರ ಶಕ್ತಿಃ ಇತಿ ಜ್ಞಾನೇ ಅರ್ಥಾತ್ ತಾತ್ಪರ್ಯಸ್ಯ ಜ್ಞಾನೇ ಏತೇ ನಿಯಾಮಕಾಃ ಭವಂತಿ ಇತಿ ಶಕ್ತಿ ನಿರೂಪಣಂ ಕೃತಂ. ಅಗ್ರೇ ದ್ವಿತೀಯಾ ವೃತ್ತಿಃ ಲಕ್ಷಣ ನೈಯಾಯಿಕಾಭಿಮತಂ ಲಕ್ಷಣಸ್ವರೂಪಂ ಅರ್ಥಾತ್ ಸ್ವಶಕ್ಯ ಸಂಬಂಧೋ ಲಕ್ಷಣ ಇತ್ಯೇವಂ ಶಕ್ಯಾರ್ಥೇನ ಸಂಬಂಧಃ ಲಕ್ಷಣ ಇತ್ಯುಚ್ಯತೆ. ಗೌಣಿ ಶುದ್ಧ ಇತ್ಯೇವಂ ದ್ವೇಧಾ ಭವತಿ ಇತ್ಯೇವಂ ಉಕ್ತ್ವಾ ಲಕ್ಷಣ ನಿಮಿತ್ತಾನಿ ತಾತ್ಸ್ಥ್ಯಾತ್ ತಥೈವ ತಾದ್ಧರ್ಮ್ಯಾತ್ ತತ್ಸಾಮೀಪ್ಯಾತ್ ತಥೈವ ಚ ತತ್ಸಾಹಚರ್ಯಾತ್ ತಾದರ್ಥ್ಯಾತ್ ಜ್ಞೇಯಾವೈ ಲಕ್ಷಣಾಬುಧೈಃ ಇತ್ಯೇವಂ ಪಂಚಭಿಃ ನಿಮಿತ್ತೈಃ ಲಕ್ಷ್ಯಾರ್ಥಸ್ಯ ಜ್ಞಾನಂ ಪ್ರತಿಪಾದಿತಂ. ಲಕ್ಷಣಾಪ್ರವೃತ್ತೌ ಅನುಪಪತ್ತಿ ಅನ್ವಯ ಅನುಪಪತ್ತಿಃ ಲಕ್ಷಣಾಬೀಜಂ ಇತಿ ಕೇಚನ ವದಂತಿ ಕಿಂತು ವಸ್ತುತಃ ತಾತ್ಪರ್ಯ ಅನುಪಪತ್ತಿಃ ಏವ ಲಕ್ಷಣಾಬೀಜಂ ಇತಿ ನಾಗೇಶೇನ ಸೋದಾಹರಣಂ ಪ್ರತಿಪಾದಿತಂ. ಜಹದಜಹಲ್ಲಕ್ಷಣ ಯತ್ರ ಶಕ್ಯಾರ್ಥಸ್ಯ ಏಕದೇಶಃ ಗೃಹ್ಯತೆ ಏಕದೇಶಶ್ಚ ತ್ಯಜ್ಯತೆ ತತ್ರ ಜಹದಜಹಲ್ಲಕ್ಷಣ ಇತಿ ಪ್ರತಿಪಾದಿತಂ. ಯಥಾ ಪಟೋದಗ್ಧಃ ಗ್ರಾಮೋದಗ್ಧಃ ಇತ್ಯಾದಿಷು ಪಟೈಕದೇಶಃ ಗ್ರಾಮೈಕದೇಶಃ ಇತ್ಯೇವಂ ಲಕ್ಷಣ. ಮೀಮಾಂಸಕಾಭಿಮತಂ ಲಕ್ಷಣಸ್ವರೂಪಂ ಅರ್ಥಾತ್ ಸ್ವಬೋಧ್ಯ ಸಂಬಂಧಃ ಲಕ್ಷಣ वाक्यलक्षणा मीमांसकाः अङ्गीकुर्वन्ति न केवलं पदे किन्तु वाक्ये अपि लक्षणा भवति यथा गभीरायां दद्यां घोषः इत्यादि उक्तम् लक्षितलक्षण द्विरेफपदे द्विरेफपदेन भ्रमरपदस्य प्रतीतिः तस्य यः अर्थः तत्र लक्षितलक्षण इति लक्षणायाः द्वैविध्यं नाम प्रयोजनमती रूढ इत्येवं द्विविधा लक्षणा भवति इति प्रतिपाद्य लक्षणा नास्ति इति लक्षणायाः खण्डनं वैयाकरणमतानुगुणं शक्त्या एव निर्वाहः शक्तिः द्विविधा अप्रसिद्धा प्रसिद्धा आमन्दबुद्धिवेद्यार्थं वं प्रसिद्धात्वं सहृदय हृदयमात्रबोध्यत्वम् अप्रसिद्धात्वम् अप्रसिद्धा शक्तिरेव लक्षणा तत्र तात्पर्यमेव निर्णायकम् इति नागेशस्य मतं शक्त्यैव निर्वाहः क्रियते इति ततः तृतीया वृत्तिः व्यञ्जना तत्र व्यञ्जनायाः स्वरूपं किं मुख्यार्थबाधः नापेक्ष्यते सम्बद्धः वा असम्बद्धो वा अर्थः संस्कारविशेषः व्यञ्जन सो प्रतिभादि उद्बुद्धः सो वक्त्रादिज्ञान प्रतिभाद्युद्बुद्धः सो वक्त्रादिज्ञानं प्रतिभा च यत्र अस्ति तत्र व्यङ्ग्यार्थस्य प्रतीतिः यत्र मुख्यार्थस्य बाधः नापेक्ष्यते सो द मुख्यार्थ आल्सो होल्ड्स् गुड् अलाङ्ग् वित् इट् अ सब्जेक्टिव् मीनिङ्ग् विच् इमर्ज् औट् आफ् अ वर्ड् और् अ सेण्टेन्स् इस् काल्ड् व्यञ्जन तत्तु पदे भवति वाक्ये भवति ध्वनिषु भवति सर्वत्र भवति इति लक्षणया एव व्यञ्जना गतार्थ इति तार्किकानां मतं खण्डितम् बिकास् लक्षण इस् डिपेण्डेण्ट् आन् मुख्यार्थबाध एण्ड् मुख्यार्थसम्बन्ध उभयमपि व्यङ्ग्ये न व्यङ्ग्यार्थे अथवा व्यञ्जनायां न भवति इत्यतः व्यञ्जनया निर्वाहः न भवति इति तार्किकमतस्य खण्डनम् अग्रे स्फोटनिरूपणम् वृत्तिः निरूपिता वृत्त्याश्रयः स्फोटः उच्यते स च कीदृशः शब्दस्वरूपं किम् इति तत्र वर्णादीनां वाचकत्वम् इति तार्किकमतं तत्तु निरस्तं प्रत्येकं वर्णानां वा वर्णसङ्घातस्य वा न भवति वाचकत्वं तत्र तार्किकैः त्रेधा समाधानम् उच्यते वर्णसमूहस्य प्रत्यक्षत्वे शब्दजशब्दन्यायः इत्यादि तत्सर्वमपि निराकृत्य स्फोटस्य वृत्त्याश्रयत्वं वृत्त्याश्रयः शब्दः स्फोटः न तु ध्वनिः इति प्रतिपादितम् तत्र वाचः चतुर्विधत्वम् परा पश्यन्ति मध्यमा वैखरी इत्येवं चतुर्विधा वागस्ति तत्र मध्यमानादः स्फोटव्यञ्जकः वैखरीनादस्तु ध्वनिः के अनर्थकः भैर्यादिनादवत् इति स्फोटस्य अभिव्यक्तिप्रकारः उच्चारयितुः युगपदेव मध्यमा वैखरीभ्यां नादः उत्पद्यते श्रोतुस्तु वैखरीनादेन अभिज्वलितः मध्यमानादः बुद्धिगतः तेन स्फोटस्य अर्थस्य अवगमनं भवति प्राकृतध्वनेः स्फोटव्यञ्जकत्वं ध्वनिः द्विविधः प्राकृतः वैकृतः सो प्राकृतध्वनिः स्फोटं व्यञ्जयति इति स्फोटस्य अभिव्यक्तिः कथं भवति औपाधिकः भेदः वस्तुतः स्फोटः शब्दब्रह्मस्वरूपः एकः नित्यः अखण्डश्च तत्र कत्वादिकम् औपाधिकम् उपाधिभेदात् स्फोटभेदः अथवा शब्दभेदः प्रतीयते वस्तुतः शब्दः एकः नित्यः अखण्डश्च इति वैयाकरणसिद्धान्तः ततः शब्दबोधसहकारिकारणनिरूपणम् इत्यत्र आकाङ्क्षा योग्यता आसक्तिः तात्पर्यम् इत्येते पदार्थाः निरूपिताः सो द नेक्स्ट् ही विल् गो आन् टु धात्वर्थ सो वी विल् टेक् अ ब्रेक् हियर् from Paramalagha Manjusha, since I was doing it for those who attended the exams and we have covered till Tatparya. So we will restart the classes in May. Okay, I'll send you a mail about the exact date of announcement. Probably the first week of May we will resume the classes and we will probably go at a slower pace. Okay, I mean, I had to cover this quickly because of the exams. So henceforth, probably with one or two classes per week, we will study the whole of the Paramalagha Manjusha at a slightly slower pace, starting from May. Okay. So with this, we will take a break of some 3 weeks. Any questions? Yes, Paul?
Yes, oh, good. I'll get a chance to catch up a little bit. Okay, but plus the Tatpariyam is giving me a little bit of problem. I think I must have missed a bit of...
Exactly. I think if you go through the Shakti, we discussed quite a bit of that there.
That's one of the things I have with Tatpariyam. Like, you have the Akanksha is there in the sentence. You have a desire to know what the other word and how it relates and all that, and then you understand. So that's there in the sentence. And then you have the yogyata has to be there, of course. And then yasati is nice if it's there. But then with the tatpariya, it seems like that has to come from outside of the sentence.
Yes. So tatpariya, it depends on, it is basically the intention. What is the intention which the vakta has to convey? Okay, it is
right.
In the speaker. Okay, it is purely dependent on the speaker. So what is the thing? And especially, it is especially important when you use words with multiple connotations. Okay, so nanarthaka shabdas, when you use it, it is basically the speaker who decides that I will use this word in this particular meaning. Okay. So if you know the intention of the speaker, then you will be able to understand it correctly. Correctly as in, you will be able to understand what the vakta intended. Okay.
Right.
Okay.
So that's the problem. You have to understand that intention. And that, is the idea you get that from the other sentences around the sentence?
Exactly. So that is what we studied. I think you weren't there for that portion yet. We studied about 12 or 13 factors in the Shakti Niyamaka. So what are the different factors which will help us in determining that? So there are several. So the related words, if you look, say for example, Rama, the word Rama is used for Sri Rama, it is used for Parashurama and for the Kartavirya, Balarama. So three different people. But knowing if you say Rama Lakshmanau, so it always means the son of Dasharatha, the Sri Rama. But if you say Ramadagnihi Ramaha, Jamadagnyaha Ramaha, then it means Parashurama. So there are ways of determining it. There are several ways, actually not one. So it is some 12 or 13 different factors which will help us in disambiguation. So we covered that in Shakti. So what the Tarkikas say that they are Shakti Niyamakas. That is, the word has Shakti in different arthas. So that will help in fixing the Shakti. But what Nagesha says is, Shakti is equally present in all meanings. That those factors will help in determining the tatparya, the intention. So if you don't know the tatparya, you will still remain confused between what it actually means. So even knowing Shakti, you can still be confused if you do not know the tatparya. So that is why tatparya is a sahakari karana for Shabdabodha.
Right, but then the tatparya is the most vulnerable to be mistaken.
Interpretation, yes, definitely.
So you could think you understand everything, but you may have the wrong tatpariya.
Exactly.
And
that's very natural. That is a very thing which actually happens in natural communication, where you understand, you think you understand what they said, but then they'll say, I did not mean it at all. So,
right. And then this was covered a few weeks ago, then I can review that.
Yes.
Okay, I'll find that when I go through it. Okay.
Yeah.
Thank you.
Okay, so we'll stop here. Shivannatva hinageshe nanindya paramalaghu vayyakarana siddhanta manjusheisha virachyate. Thank you.